अथ श्रीवेङ्कटेशाष्टकम् मुखे चारुहासं करे शङ्खचक्रं गले रत्नमाला स्वयं मेघवर्णम् कटौ दिव्यवस्त्रं प्रियं रक्तवर्णं धरन्तं मुरारिं भजे वेङ्कटेशम् सदाभीष्टहस्तं मुदाजानुपाणिं लसन्मेखलारत्नशोभाप्रकाशम् जगत्पावनं पादपद्मारसालं धरन्तं मुरारिं भजे वेङ्कटेशम् अजं निर्मलं नित्यमानन्दरूपं जगत्कारणं सर्ववेदान्तवेद्यम् विभुं वामनं सत्यमानन्दरूपं धरन्तं मुरारिं भजे वेङ्कटेशम् श्रियावेष्टितं वामवक्षस्थलाङ्गं सुरैर्वन्दितं ब्रह्मरुद्रादिभिस्तम् सुरस्वामिनं लोकलीलावतारं धरन्तं मुरारिं भजे वेङ्कटेशम् महायोगगम्यं परिभ्राजमानं विदं विश्वरूपं महेशं सुरेशम् अहो बुद्धरूपं महाबोधगम्यं धरन्तं मुरारिं भजे वेङ्कटेशम् अहो मत्स्यरूपं तथा कूर्मरूपं तथा क्रोडरूपं महानारसिंहम् अहो कुब्जरूपं प्रियं जामदग्न्यं धरन्तं मुरारिं भजे वेङ्कटेशम् अहो बौद्धरूपं तथा कल्किरूपं प्रियं शाश्वतं लोकरक्षाकरं तं शुभं शङ्करं वास्ति निर्वाणरूपं धरन्तं मुरारिं भजे वेङ्कटेशम् जयति जयति रामो जानकी जीवहृद्यो जयति जयति कृष्णः कामिनी केलिलोलः जयति जयति विष्णुर्वासुदेवो मुकुन्दो जयति जयति देवो वेङ्कटेशः सुरेशः इति श्रीब्रह्माण्डपुराणे श्रीवेङ्कटेशाष्टकम्।